इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः दिव्यानन्द झा। अथ वार्ताः। नवदिल्ल्यां विदेशमन्त्री डॉक्टर सुब्रह्मण्यम् जयशंकरः, अमेरिका देशीयः विदेशमन्त्री मार्को रूबियो च विभिन्नेषु विषयेषु सविस्तरं चर्चितवन्तौ। उभौ नेतारौ भारतामेरिका रणनैतिक सहभागितां भूयः अपि दृढयितुं स्वस्व प्रतिबद्धतां पुनः उदीरितवन्तौ। ताभ्याम् उक्तं यत् एषा सहभागिता व्यापारोर्जा गतिशीलता क्षेत्रीय सुरक्षादि क्षेत्रेषु विशेषतः अस्ति। डॉक्टर जयशंकरः अवदत् यत् भारतस्य अमेरिकादेशेन सह व्यापकः वैश्विकः रणनैतिक सहभागित्व सम्बन्धः वर्तते, यः खलु गहन सहयोगाधृतः वर्तते। सः उक्तवान् यत् उभयोः देशयोः सम्बन्धाः सम्पूर्ण विश्वे प्रभावं जनयन्ति, अपि च अनेकेषु क्षेत्रेषु तयोः हितानि समानानि सन्ति। विदेशमन्त्री उक्तवान् यत् एषा वर्तमान चर्चा कठिन वैश्विक परिस्थितिषु अभवत्, परञ्च मुक्त मनसा सार्थका चर्चा अभवत् इति तस्य विश्वासः। सः उक्तवान् यत् उभयोः देशयोः मध्ये व्यापार सन्धेः निर्णायक रूपेण निर्धारणम् अचिरमेव भवेत् इति आवश्यकम्। तेन ऊर्जा व्यापारे जातः विस्तारः अभिनन्दितः, अपि च उक्तं यत् विविधेभ्यः स्रोतेभ्यः ऊर्जायाः आपूर्तिः भारतस्य ऊर्जा सुरक्षायै अत्यावश्यकी वर्तते।
Our government's fundamental responsibility is to address the needs of 1.4 billion people. Obviously, ensuring the accessibility and affordability of energy for them is our prime objective. Secretary and I therefore welcomed the expansion in our energy trade in recent months. Diversified supplies are at the heart of energy security for India.
अमेरिका विदेश मंत्री उक्तवान् यत् उभौ देशौ आतंकवाद कारणात् कष्टम् अनुभूतवन्तौ। भारतम् अमेरिका च तेषु सर्वेषु प्रमुख विषयेषु रणनीतिक रूपेण एकमतौ स्तः, ये नूतन शताब्दीं परिभाषयिष्यन्ति। ध्यानास्पदम् अस्ति यत् अमेरिका देशीयः विदेशमन्त्री मार्को रूबियो चतुर्दिवसीय यात्रा प्रसंगे सम्प्रति भारते अस्ति। सः अस्य मासस्य षड्विंशति दिनांके अर्थात् श्वः क्वाड विदेशमन्त्रिणां सम्मेलने सहभागं करिष्यति। पश्चिम बंगाल राज्ये भारतीय जनता पार्टीति दलस्य प्रत्याशी देवांशु पाण्डा फाल्टा विधानसभा क्षेत्रस्य पुनर्निर्वाचने सुमहद् विजयम् अवाप्नोत्। श्री पाण्डा एकविंशत्यधिक नवसहस्रोत्तरैक लक्षमतैः भारतीय साम्यवादी मार्क्सवादी दलस्य शम्भुनाथ कुर्मिणम् पराजितवान्। तत्र कांग्रेस दलस्य अब्दुर रजाक मोल्लाः तृतीय स्थाने, अपरतः तृणमूल कांग्रेस दलस्य प्रत्याशी जहांगीर खान चतुर्थ स्थाने अवर्तताम्। पश्चिम बंग विधानसभा निर्वाचनस्य मतदानकाले बृहत् स्तरे दुराचारस्य आरोपानन्तरं निर्वाचनायोगः फाल्टा नगरे पुनः मतदानस्य आदेशं प्रदत्तवान्। ध्यानास्पदमस्ति यत् अस्मिन् मासे एकविंशति दिनांके पुनः मतदानम् अभवत्। राष्ट्रपतिः द्रौपदी मुर्मूः अद्य राष्ट्रपति भवने षड्विंशत्यधिक द्विसहस्रतमाब्दस्य प्रथमे नागरिकालंकरण समारोहे षट्षष्टि पद्म पुरस्कारान् प्रदास्यति। अत्र उपराष्ट्रपतिः सीपी राधाकृष्णन्, प्रधानमन्त्री नरेन्द्र मोदी, केन्द्रीय गृहमन्त्री अमित शाहः, अन्ये च सम्मान्यजनाः उपस्थिताः भविष्यन्ति। देशस्य मध्योत्तर पश्चिमीय दिग्विभागेषु अतितापकारणात् जनजीवनं पर्याकुलितम् अस्ति। अत्र क्षेत्रेषु प्रायः समाना एव स्थितिः आगामिभ्यः षड् दिवसेभ्यः प्रवर्तिष्यते इति भारतीयर्तुविभागेन सूचितम्। क्रीडावार्तासु आईपीएल क्रिकेट स्पर्धा मालिकायां गतरात्रौ दिल्ली कैपिटल्स दलेन कोलकाता नाइट राइडर्स दलं पराजितम्। अपरतः राजस्थान रॉयल्स दलेन मुंबई इंडियंस दलं त्रिंशद्धावनांकैः पराजितम्।